ऋणश्च ऋणहर्ता धनप्रदः स्थिरासनो महाकायः सर्वकर्मावरोधकः। लोहितो लोहिताक्षश्च सामगानां कृपाकरः धरात्मजः कुजो भौमो भूतिदो भूतिनन्दनः। अंगारको यमश्चैव सर्वरोगापहारकः वृष्टेः कर्तापहर्ता च सर्वकामफलप्रदः। एतानि कुजनामानि नित्यं यः श्रद्धया पठेत् ऋणं न जायते तस्य धनं शीघ्रमवाप्नुयात्। अंगारक महाभाग भगवन भक्तवत्सलः त्वां नमामि ममाशेष ऋणमाशु विनाशय। चान्येऽपमृत्यवः भयक्लेशमनस्तापा नश्यन्तु मम सर्वदा। वक्र दुराराध्य भोगमुक्तजितात्मनः तुष्टो ददाति साम्राज्यं रुष्टो हरसि तत्क्षणात्। विरिञ्चि शक्रविष्णुनां मनुष्याणां तु का कथा तेन त्वं सर्वसत्त्वेन ग्रहराजो महाबलः। शत्रुणां च भयात्ततः। ऋणमोचनमङ्गलस्तोत्रं यः पठेत् श्रद्धान्वितः महतीं श्रियमाप्नोति ह्यपरो